मया नववादने कर्तव्यम्।
अस्तु भगिनि, हा
अस्तु,
सर्वेभ्यो नमस्कारः। गीतासोपाने वयं पुटसङ्ख्या 63 तत्र सप्तमी भक्ति इति विषय अस्माकं विषयः। गतवर्गे वयं किञ्चित् तस्य अभ्यासं कृतवन्तः, किन्तु तत्र ध्वनिमुद्रणं नास्ति इति कृत्वा किञ्चित् पुनस्मरणं कृत्वा तत्र अभ्यासः कुर्मः, गृहपाठः यत् आसीत्। हा तत्र पुटसङ्ख्या 63 पश्यतु, तत्र किमस्ति, तत्र सप्तमीभक्तिरूपं तत्र गजे यत् रक्तवर्णे अस्ति तत् सप्तमीभक्तिरूपम् अस्ति। हा एकवारम् एतत् कुर्मः। तत्र हा देवः इति पदस्य सप्तमीभक्तिरूपं किम् अस्ति, सरला भगिनी? देवः
देवे देवयोः देवेषु
देवेषु इति अस्ति। हा पुल्लिङ्ग अकारान्तरूपं तादृशः अस्ति। तत्र पुटसङ्ख्या 65 पश्यतु, तत्र रूपं कीदृशं भवति इति दत्तमस्ति। तत्र ग्रन्थः इति ग्रन्थे ग्रन्थयोः ग्रन्थेषु इति अस्ति। तदेव एकवारं कुर्मः शीघ्रतया, एकमेकम् उदाहरणं तत्र कुर्मः, तदनन्तरम् एतत् गृहपाठः यद् आसीत् तत् कृत्वा अग्रे गच्छामः। तत्र गीताञ्जलि भगिनी, देहः तस्य विभक्तिरूपं वदतु, केवलं सप्तमीविभक्ति।
देहः देहे देहयोः देहेषु
इति अस्ति। हा तदनन्तरं भानुचेतनी महोदय, मुनिः इति इकारान्त पुटसङ्ख्या 65 दृष्ट्वा वदतु महोदय।
आं महोदय, मुनौ मुन्योः मुनिषु
मुनिषु इति अस्ति। हा इदानीं भानुभगिनी, तत्र पुटसङ्ख्या 65 दृष्ट्वा बाहुः तस्य सप्तमीभक्तिरूपं वदतु।
बाहुः बाहौ बाहोः बाहोः बाह्वेषु
बाहुषु बाहुषु
ओके गुरु गुरौ गुरुवोः गुरुषु बाहुषु बाहौ बाहुवोः बाहुषु।
हा समीचीनं भगिनि। हा इदानीं हरिमहोदय, तत्र पिता इति
पिता
तत्र तत्रैव अस्ति ऋकारः।
पिता पितरि पित्रोः पितृषु
पितृषु समीचीनं महोदय। अस्तु इदानीं सरला भगिनी, पुनः गीता इति
गीता गीतायां गीतायोः गीतासु
गीतासु गीतासु गीतासु। हा गीताञ्जलि भगिनी, इदानीं श्रुतिः गतिः गतिः इति वदतु भगिनि, अग्रिमपुटे अस्ति।
गतिः गत्यां गत्योः गतिषु
गतिषु गतिषु इति अस्ति। हा एतत् गतवर्गे कृतवन्तः, किन्तु ध्वनिमुद्रणं नास्ति इति कृत्वा पुनरेकवारं शीघ्रतया कुर्मः, पुनस्मरणं भवति इति। हा अस्तु इदानीं भानुचेतनी महोदय, तत्र आवर्तिनी इति
महोदय आवर्तिनी
हा तत्र यत् पुट कोष्टके अस्ति 65-66 मध्ये, केवलम् एकम् एकं कृत्वा कुर्वन् स्मः।
इदानीं किं
नदी इति अस्ति, नदी इति उदाहरणं दृष्ट्वा तस्य आवर्तिनी इति तस्य विभक्तिरूपं सप्तमीविभक्तिरूपम्
आवर्तिनी इति नद्याम्
इति अस्ति महोदय, नद्यां यकारः अस्ति तत्र,
आवर्तिनाम्
आवर् नदी नद् नद् प्लस् यां नद् प्लस् इ तत् किं भवति नद् प्लस् यां भवति आवर्तिन्
आवर्तिन्यां
हा आवर्तिन् प्लस् इ आवर्तिन्यां
आवर्तिन्योः
आवर्तिनीषु आवर्तिनीषु समीचीनं महोदय. हा इदानीं भानुभगिनी तत्र अग्रिमम् अस्ति रज्जुः इति उदाहरणमस्ति, तत्र धेनुः इति करोतु भगिनि.
आं महोदय.
हा
रज्जु रज्ज्वां रज्वोः रज्जुषु धेनुः धेन्वां धेन्वोः धेनुषु
इति अस्ति. हा इदानीं वधू इति अस्ति, हरि महोदय वधू इति अस्ति, तद् दृष्ट्वा चमू इति करोतु.
वधूः वध्वां वध्वोः वधूषु, चमूः चम्वां चम्वोः चमूषु
इति अस्ति. हा अग्रे गीताञ्जलि भगिनी माता इति
माता मातरि मात्रोः
मातृषु
हा पितरि तादृश एव माता अपि अस्ति. समीचीनं भगिनि. हा इदानीं सरला भगिनि अयनम् इति अयनेषु अयनेषु समीचीनं भगिनि. हा भानुचैतन्य महोदय इदानीं तत्र वारि अक्षी अस्ति, तद् त्यजामः. अन्तिम उकारान्तनपुंसकलिङ्गशब्दः जानु इति
महोदय भानु
जानु जानु जानु
जानु जानु
अधोभागे अस्ति
जानुनि जानुनो जानुषु
जानुषु इति अस्ति. हा इदानीं सप्तविभक्तिरूपं दृष्टवन्तः. उकारान्त वा अकारान्त पुल्लिङ्ग वा स्त्रीलिङ्ग वा बहु बहूनि रूपाणि दृष्टवन्तः. इदानीं तस्य अभ्यासः कुर्मः. अग्रिमपुटे यदस्ति तदेव गृहपाठः आसीत्, पुटसङ्ख्या 67. तत्र सरला भगिनी आरम्भं. हा भानु भानुचैतन्य महोदय प्रश्नः अस्ति वा?
सुप्रत्यय एकविंशतिः सुप्रत्ययः यदस्ति तत् विविधाः नियमाः सूत्राः सन्ति किम्? अतः एव शब्दाः रूपम् अन्यं दृश्यते.
तत्र भानुचैतन्य महोदय यत् वदति तत्र किं कुर्मः, विभक्ति कति विभक्तयः सन्ति, हरि महोदय विभक्तयः कति विभक्तयः सन्ति?
अष्ट
अष्ट सम्बोधनं स्वीकृत्य अष्ट, नो चेत् सम्बोधनं त्यजामश्चेत् सप्त सप्तविभक्तयः. अपि केवलं पदस्य केवलं विभक्ति इति अस्ति वा, वचनमपि अस्ति खलु? हा अतः कति रूपाणि सन्ति विभक्तिरूपाणि इति वदामश्चेत् कति रूपाणि सन्ति?
एकविंशति
एकविंशतिरूपाणि सन्ति. हा समीचीनम्. अतः भानुचैतन्यमहोदय वदति तत्र प्रत्येकस्य विभक्तिरूपस्य वयं किं कुर्मः, किमपि प्रत्ययः इति तस्य संयोजनं कृत्वा तस्य रूपं वयं प्राप्नुमः. तत्र सुप् तत्र सु इति तादृशप्रत्ययाः सन्ति येन वयम् एतत् सर्वं कर्तुं शक्नुमः. तत्र भानुचेतनी महोदय, भवतः प्रश्नः अस्ति किमर्थं रूपभेदः अस्ति इति, खलु?
महोदय, एतत् केवलं सन्धि वा?
तत्र सन्धि मध्ये यद् भवति तदेव अत्रापि भवति, तत्सर्वं पाणिनेः सूत्रैः पाणिनेः सूत्राणि सन्ति, येन वयम् एतत् कीदृशं रूपम् अस्ति इति निर्णेतुं शक्नुमः, किन्तु कार्यं सर्वदा एकमेव अस्ति, प्रत्ययः तदेव अस्ति, यदि प्रथमाविभक्ति द्विवचनरूपम् आवश्यकम् अथवा सप्तमी तदेव प्रत्ययः अस्ति, किन्तु तस्य प्रत्ययस्य पूर्वं किम् अस्ति, तस्य पदस्य अन्ते किम् अस्ति इति दृष्ट्वा सन्धि यथा कुर्मः तथा एव अत्रापि करणीयमस्ति.
पदं निष्पन्नं भवति,
हा, तत्र किं किं कस्य सूत्रस्य आवश्यकता अस्ति, तत् तस्य तत् सूत्रं वयं स्वीकुर्मश्चेत् किं भवति इति सर्वं दृष्ट्वा रूपं किम् इति वक्तुं शक्नुमः, किन्तु कार्यं सर्वदा एकमेव अस्ति, पदं प्लस् यत् प्रत्ययः आवश्यकमस्ति, प्रत्येकस्य विभक्ति वचनं तत्र एकमेव प्रत्ययः अस्ति, एकविंशतिः प्रत्ययाः सन्ति, तस्य सन्धि इव कार्यं भवति, किन्तु कार्यं कीदृशं कीदृशाणि कानि सूत्राणि वयं यस्य उपयोगं वयं करणीयम् इति तत्तु सर्वदा एकमेव न भवति, हा, यदि अन्यत् पदं स्वीकुर्मश्चेत् अन्यसूत्रस्य आवश्यकता भवति इति, अकारान्त अस्ति चेत् एकं सूत्रम्, इकारान्त अस्ति चेत् अन्यत् सूत्रम् इति.
आं महोदय, अस्तु.
सरला भगिनी भवती किमपि वक्तुम् इच्छति खलु, वदतु भगिनि.
उक्तवती एतत् सर्वे नियमः प्रक्रिया व्याकरणे वर्गे पठितं.
हा सत्यं, किन्तु सत्यं भगिनि, किन्तु एकं तु वक्तुं शक्नुमः, तत्र सर्वदा वयं प्रत्ययः एकमेव, किन्तु कीदृशं कार्यं भवति, कार्यं केन सूत्रेण वयं कुर्मः, तत्र भेदः अस्ति, अकारान्त अस्ति चेत् प्रायशः सवर्णदीर्घसन्धि तादृशसूत्रस्य आवश्यकता अस्ति, इकारान्तपदम् अस्ति चेत् अन्यत् सूत्रं तस्य आवश्यकता अस्ति इति भवति, अतः रूपभेदः अस्ति इति. अस्तु, अन्य कोऽपि अस्ति, जयन्ति इति अस्ति, नमस्कारः.
नमस्कारः महोदय, क्षमताम् अहम् आलस्यम् आगच्छामि.
अस्तु, भवानपि वक्तुम् इच्छति वा?
अहं प्रथमवारम् आगतवान् अद्य. अहं
तत्र गीतासोपाने वयं प्रथमभागे पेज् 65, 66, 67 तत्र स्मः. अस्तु अस्तु अस्तु, इदानीं यत् गृहपाठः आसीत् तत् कुर्मः.
महोदय, एकः सन्देहः
अस्ति, वदतु महोदय.
कश्चन शब्दः पुल्लिङ्ग् वा स्त्रीलिङ्ग् वा नपुंसकलिङ्ग् वा इति वयं कथं जानीमः?
हा, जानीमः. समीचीनप्रश्नः अस्ति महोदय. तत्र नियमः, अहं तु कोऽपि नियमः न जानामि, हा, तत्र केवलं दृष्ट्वा एव स्मरणं कृत्वा पुनः एतत् अहं दृष्टवान् अथवा वाक्ये दृष्ट्वा अस्तु एतत् प्रायशः स्त्रीलिङ्गपदम् अस्ति इति, तादृश एव नियमः इति, हा, केचन शब्दाः वयं वक्तुं शक्नुमः, अकारन्तपुल्लिङ्गशब्दः, इकारन्तपुल्लिङ्गशब्दः इति, किन्तु तद् सर्वदा सम्यक् न भवति. अतः अहं तु कोऽपि नियमं न जानामि महोदय. सरला भगिनी कोऽपि नियमः भवती जानाति वा?
न महोदय, अभ्यासेन न आगच्छति.
केवलम् अभ्यासेन एव अस्ति महोदय. तत्र सर्वदा क्लेशः भवति.
दश स्त्रीप्रत्ययाः तु सन्ति, तद् दृष्ट्वा केचन शब्दाः ज्ञातुं शक्यते. स्त्रीप्रत्ययाः, दश स्त्रीप्रत्ययाः सन्ति इति अहं जानामि महोदय.
के सन्ति ते? ते ते के?
के के इति अहं न जानामि. ति ई इति अहं जानामि. मतिः इकारान्त यदस्ति प्रायः इकारान्त स्त्रीलिङ्गः भवितुम् अर्हति.
महोदय इकारान्त पुल्लिङ्ग अस्ति,
कविः पुल्लिङ्ग अस्ति खलु महोदय.
एतत् सर्वस्मरणीय बुद्धिः भवति इकारान्त स्त्रीलिङ्ग भवति, गिरिः भवति इकारान्त पुल्लिङ्गशब्द. सो एतत्
तत्र भनचेते महोदय किञ्चित् क्लेशः अस्ति पश्यतु. तत्र तत्र केवलं एकं तु वक्तुं शक्नुमः, अकारान्तपदम् अस्ति चेत् तत् पुल्लिङ्गः एव इति, आकारान्त अस्ति चेत् तत् स्त्रीलिङ्गपदम् इति, तत्तु सत्यं. किन्तु यदि प्रातिपदिकं न जानीमः कथं वयं निर्णेतुं शक्नुमः खलु? योगी इति पदमस्ति, पिता इति पदम् अस्ति, तद् दृष्ट्वा वयं न जानीमः तत् ऋकारान्तपदम् इति खलु. अतः क्लेशः अस्ति महोदय. अहं चिन्तयामि किमपि सुलभमार्गं तत्र नास्ति लिङ्गनिर्णयं, येन वयं लिङ्गस्य निर्णयं कर्तुं शक्नुमः इति.
परम्परया तु अष्टाध्यायी पिता, अमरकोशः माता, एतत् द्वयं यद् बालकावस्थायामेव पठन्ति महोदय.
सत्यं. किन्तु तत्र किं भवति, पदस्य पूर्व परिचयं भवति तत्र खलु, पाणिनि. किन्तु तत्र केवलं पदं दृष्ट्वा वयं वक्तुं न शक्नुमः खलु.
तद् उत्तममार्गः अहं वदामि. अमरकोशे तु लिङ्गज्ञानम् अस्ति, अतः
सत्यं एतत् अहम् अङ्गीकरोमि. किन्तु किमर्थं यदि कोऽपि पृच्छति अस्तु अमरकोशे एतत् पुल्लिङ्गपदम् इति दत्तमस्ति, किमर्थम् एतत् पुल्लिङ्गपदं, कः नियमः इति इत्युक्ते किं वक्तुं शक्नुमः तस्मिन् सन्दर्भे? अस्तु, हरिमहोदय प्रायशः अन्यः कोऽपि अन्यत् वदेत्, किन्तु अहं तु कोऽपि किमपि नियमं न जानामि महोदय, येन वयं लिङ्गनिर्णयं कर्तुं शक्नुमः. सर्वदा ओ अस्तु अस्तु एतत् पदम् एतस्मिन् उदाहरणे अहं दृष्टवान्, अत्र उदाहरणे एतत् पुल्लिङ्गपदमिव दृश्यते, अतः एतत् पुल्लिङ्गं भवेत् इति, एतदेव मम चिन्तनम् अस्ति.
प्रयोजनद्वारा
एव सत्यम्. अस्तु अस्तु, इदानीं वदतु भगिनि.
ब्रह्मसरोवर आवर्णे कुरुक्षेत्रं दत्तमस्ति, अकारान्त नपुसिंह एकवचनम् अस्ति, ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति।
हा, ब्रह्मसरोवरः कुरुक्षेत्रे अस्ति, समीचीनं भगिनि। अस्तु, नरेश महोदय नमस्कारः।
नमस्कारः महोदय, क्षम्यतां विलम्बेन आगतवान्।
चिन्ता मास्तु महोदय, भवानपि वदति वा अद्य, खलु?
आम् महोदय, नर्तकाः मञ्चे नृत्यन्ति।
हा, नर्तकाः मञ्चे नृत्यन्ति, समीचीनं महोदय। गीताञ्जलि भगिनी अग्रिमम्।
गङ्गोत्री हिमगिरौ हिमगिरौ अस्ति।
हा, हिमगिरौ अस्ति, समीचीनम्, इकारान्त अस्ति। अस्तु, भानचेतनी महोदय अग्रिमम्।
नीतिकथाः पुराणानि सन्ति, नीतिकथाः पुराणेषु सन्ति,
पुराणेषु सन्ति, समीचीनं महोदय। भानु भगिनी,
हंसाः तडागे तरन्ति।
हा, समीचीनं भगिनी,
समीचीनं, बहुवचनं। एकं तडागे तडागे तरन्ति,
समीचीनं भगिनी। हा, बहु समीचीनं, हरि महोदय अग्रिमम्।
अश्वाः युद्धभूमौ धावन्ति।
हा, युद्धभूमौ धावन्ति, समीचीनं महोदय। हा, सरला भगिनी अग्रे।
सिंहा गुहा, गुहा आकारान्त स्त्रीलिङ्गशब्दः अस्ति एकवचने, गुहा पुल्लिङ्ग बहुवचनमस्ति, गुहाः विसर्ग अस्ति तत्र, सिंहाः गुहासु वसन्ति।
सिंहाः गुहासु वसन्ति, गीताञ्जलि भगिनि अग्रे।
वृक्षायुर्वेदः अग्निपुराणम् नपुंसकलिङ्ग, वृक्षायुर्वेदः अग्निपुराणे अस्ति,
अग्निपुराणे अस्ति, समीचीनं भगिनि। नरेश महोदय।
आं महोदय, कृष्काः केदाराः केदारेषु बीजानि वपन्ति, केदारेषु बीजानि वपन्ति।
किं महोदय तत्
कृषकाः केदारः
इत्युक्ते
पुनरेकवारं वदतु भगिनि, सरला भगिनि।
पेडी फील्ड् डिक्षनरि मध्ये
दृष्टवती। अग्रे
फलानि जलं निपतन्ति, फलानि जले जले निपतन्ति।
हा, फलानि जले निपतन्ति। हा, अस्तु, भानु भगिनि।
सुकनासोपदेशः कादम्बरी अस्ति, कादम्बरी ईकारान्त स्त्रीलिङ्गशब्दः, मतिशब्दवत् मन्ये,
मत्मतीति नदी, नदी, नदी,
नदी,
नदी, नदी, नदी, ई दीर्घ ईकारः अस्ति,
ईकारान्त कादम्बरी, ईकारान्त शब्दवत्, गौर्यां कादम्बर्याम् अस्ति।
हा, पुनरेकवारं पूर्णवाक्यं।
सुकनासोपदेशः कादम्बर्याम् अस्ति।
हा, अस्तु, समीचीनं, हरि महोदय।
पक्षिणः निदानेषु निवसन्ति, निदानेषु
नीडेषु।
हा, नीडः तत्र नीडानि इति, तत् बहुवचनरूपं,
नीलेषु निवसन्ति.
हा, वनम् अस्ति वनानि बहुवचनरूपं. वने इति एकवचने सप्तमीविभक्ति, बहुवचनरूपं किमस्ति हरि महोदय? वनम् इति
वनानि.
हा, न न क्षम्यतां, वनम् इति शब्दस्य सप्तमीविभक्ति बहुवचनरूपं किम् अस्ति? वनेषु. हा, अत्र किमस्ति, वनानि इति स्थाने वनेषु इति भवति, नीडानि इति स्थाने
नीषु.
हा, इदानीं वाक्यं,
पक्षिणः नीडेषु निवसन्ति.
हा, समीचीनं महोदय, अस्तु. अग्रे नरेश महोदय.
आं महोदय, जानु जानु सप्तमी विभक्ति बहुवचनं, सैनिकस्य जानुषु व्रणः अभवत्.
हा, किन्तु जानु इति एकवचने अस्ति महोदय तत्र.
ओ, जानु
इति उकारान्त कीदृशपदमस्ति जानु?
गुरु
न तत्र तदेव अहं, मम चिन्तनमपि आसीत् महोदय, किन्तु अतः एव वयं पुनःस्मरणं कृतवन्तः. तत्र पेज् 66 अधोभागे पश्यतु, झानु इति नपुंसकलिङ्गपदम् अस्ति. न झानु इति तत्र पेज् 66 मध्ये अधोभागे पश्यतु महोदय, मधु इति अस्ति खलु?
मधु, मधुनि, मधुनोः, मधुषु.
हा, तस्य अन्ति अग्रिमं किम् अस्ति? झानु इति अस्ति.
जानु, जानुनि, जानुनोः, जानुषु.
हा, अस्तु. इदानीं वाक्यं,
जानुनि सैनिकस्य जानुनि व्रणः अभवत्.
हा,
जानुनि.
अस्तु, सरला भगिनी अग्रिमं.
विमानानि खं खमम् अस्ति अत्र.
खं खमेव, खमेव अस्ति.
खम् अस्ति. विमानानि खं सञ्चरति. खम् सञ्चरन्ति. अहं चिन्तयामि अकारान्तशब्दः अस्ति वा खमम् अस्ति.
नपुंसकलिङ्गपदम् अस्ति.
विमानानि खमे सञ्चरन्ति.
के इति भवति. के इत्युक्ते अखम् इत्युक्ते आकाशः. अतः तत्र खम् इति वनम् इति तादृशं, वने
खमे खमे सञ्चरन्ति.
के के वनम् इति अस्ति, वनम् इति अस्ति चेत् वने. हा, खम् इति अस्ति चेत् खे. हा, ततः तत्र प्रायशः पक्षी इति पदस्य अन्यत् समानार्थकपदम् अस्ति खगः इति. खगः, खगः इत्युक्ते खे गच्छति, यः यः खे गच्छति सः खगः इति. हा, तत्र खम् खम् इत्युक्ते आकाशः. हा, इदानीं वाक्यं पुनरेकवारं भगिनि.
विमानानि खे सञ्चरन्ति.
हा, उत्तरम्, समीचीनं भगिनि. हा, गीताञ्जलि भगिनि अग्रिमं.
महोदय, एक संशय, त्रयोदश सैनिकस्य जानुनि वर्ण अभवत्, किन्तु उकारान्त
पुल्लिङ्ग नास्ति भगिनि तत्र. अतः एव उदाहरणं पश्यतु, पेज् 66 मध्ये अधोभागे उकारन्त नपुंसकलिङ्गशब्दाः इति.
नपुंसक
समीचीनं वा इदानीं? हा जानु इति वयमपि अहमपि चिन्तितवान् तत् प्रायशः उकारन्त पुल्लिङ्ग, किन्तु नास्ति, तत् उकारन्त नपुंसकलिङ्गपदम् अस्ति. मधु इति तस्य प्रथमविभक्तिरूपं किम् अस्ति? मधु एव अस्ति इति मन्ये.
विसर्गः नास्ति तत्र.
हा तावदेव.
उकारः पुल्लिङ्ग
गुरवः इति अस्ति
एकवचनम्.
हा
एकवचनं जानु अस्ति.
हा तद् सा तावदेव. हा सत्यम्.
अग्रे वाक्यं महोदय. संन्यासी देहः पुंलिङ्ग देहे अभिमानं न करोति.
देहे अभिमानं न करोति. समीचीनं भगिनि. हा हा वानचेतन महोदय अग्रे.
तद् इति शब्दः सद्भावः प्रयोगं सद्भावे प्रयोगम् अर्हति.
हा पूर्णवाक्यं.
तद् इति शब्दः सद्भावे प्रयोगम् अर्हति.
हा समीचीनं महोदय. हा भानु भगिनी अग्रे.
आं महोदय. भक्तः बुद्धिः इकारान्त स्त्रीलिङ्गशब्दः वा महोदय?
सत्यं सत्यं भगिनि. मतिशब्दवत्
बुद्ध्याम् अथवा बुद्धैः शरणम् अविञ्चति
अन्विच्छति.
सः बुद्ध्याम् अथवा बुद्धैः
मतिशब्दः तस्य हरिशब्दवत् अस्ति अथवा नदीशब्दवत् रूप. हा मतिशब्द शब्दस्य
बुद्ध्यां
हा अथवा हरिशब्दवत् हरि किं भवति? हरौ इति भवति.
बुद्धौ
हा तादृशरूपमपि अस्ति इति मन्ये.
बुद्धौ इति अस्ति बुद्धौ.
किन्तु अत्र एकमेव बुद्ध्याम् इति स्वीकुर्मः सुलभः भवति.
आं महोदय. भक्तः बुद्ध्यां शरणम् अन्विच्छति.
हा किमर्थम् अहं वदामि बुद्ध्याम् इति स्वीकुर्मः? तस्य कारणम् एतदस्ति, बुद्ध्याम् इति पश्यामः जानीमः तत् स्त्रीलिङ्गपदम् अस्ति इति. नो चेत् हरिशब्दवत् इति चिन्तयामः, तत्र क्लेशः भवति. बुद्ध्याम् अस्ति चेत् अस्ति, अतः ओ पदमस्ति बुद्धिः, किन्तु बुद्ध्याम् इति रूपम् अस्ति, अतः एतत् स्त्रीलिङ्ग इकारान्तपदम् अस्ति किन्तु स्त्रीलिङ्गपदम् अस्ति इति मनसि न ज्ञानं भवति खलु. अतः बुद्ध्याम् इति स्वीकुर्मः. अस्तु हरिमहोदय अग्रे.
रमेश्वरः.
भगवद्गीतायां बुद्धौ शरणम् अन्विच्य इति
समीचीनं महोदय. किन्तु व्याकरणस्य दृष्टिः पश्यामश्चेत् बुद्ध्याम् इति अपि तस्य उपयोगः अपि अस्ति खलु.
सुलभम् अस्ति.
बहु समीचीनम् अस्ति महोदय. अस्तु
तत्र भगवद्गीतायां टु कीप् अप् द वाट् यु काल् छन्द छन्द दट्स् वै इट् केन् बि लैक्
किन्तु बुद्ध्यां बुद्धौ हा समीचीनमेव, किन्तु अत्र अस्मिन् वर्गे बुद्ध्याम् इति स्वीकुर्मः. मनसि स्त्रीलिङ्गपदम् इति हा इति मनसि भवति. तावदेव. किम् अन्यत् किमपि कारणं नास्ति.
पुल्लिङ्गपदं वा महोदय?
किं महोदय?
बुद्धौ इत्युक्ते तत् पुल्लिङ्गपदं वा महोदय?
न न न न किन्तु मतिशब्दस्य द्वे रूपे सन्ति स्तः अतः हा तावदेव. तत्र पश्यतु गीतासोपाने एव पेज् 198 मध्ये मतिशब्दस्य रूपं दत्तमस्ति खलु. तत्र मत्याम् अथवा मतौ इति अस्ति. तत्र मतिशब्दः कीदृशम् अस्ति? किञ्चित् कविशब्दवत् अस्ति, किञ्चित् नदीशब्दवत् अस्ति. अतः तस्य रूपमपि तस्य विभक्तिरूपम् अपि एकं रूपं कविशब्दम् अनुसरति, अन्यत् रूपं नदीशब्दम् अनुसरति. अतः रूपद्वयम् अस्ति. हा तावदेव. हा अस्तु हरि महोदय.
परमेश्वरः पृथ्वी पुण्यः गन्धः पृथ्वी गौरीशब्दः परमेश्वरः पृथिव्यां पुण्यः गन्धः.
हा समीचीनं महोदय. अस्तु अग्रे हा सरलभगिनी अग्रे.
यतिः संसिद्धि पुल्लिङ्गशब्दः अस्ति इकारान्त. यतिः संसिद्धौ पुनः यतते.
हा संसिद्धौ पुनः पुनः यतते समीचीनं. हा नरेश महोदय अग्रिमं.
महोदय स्त्रीलिङ्ग शब्द
नाहं दृष्टवती भगिनि.
संसिद्धिः अन्य संसिद्धिः प्रायशः तस्य लिङ्गभेदः लिङ्गपरिवर्तनं भवति इति वा भगिनि? सरला भगिनि
उपसर्ग. आमाम्
अस्तु.
अस्तु महोदय.
हा अस्तु.
त्वं शुचिः देशे आसनं स्थाप. शुचि सप्तमी विभक्ति शुचौ. त्वं शुचौ देशे आसनं स्थापय.
हा तत्र शुचिः इति तस्य पदस्य लिङ्गं किम्?
शुचिः स्त्रीलिङ्गं मतिः.
अस्तु 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 अस्तु. अतः अन्यत् रूपं किम् अस्ति?
शुच्यानां.
अस्तु अस्तु महोदय. अस्तु समीचीनं महोदय. अस्तु रूपद्वयम् अस्ति भगिनि. मतिशब्दस्य रूपद्वयम् अस्ति सप्तविभक्ति. मत्याम् अथवा मथौ इति एकवचने. अस्तु अग्रे भानुचैतन्य महोदय.
कार्याकार्यव्यवस्थितिः शास्त्रमेव प्रमाणम्. कार्याकार्यव्यवस्थितौ शास्त्रमेव प्रमाणम्. कार्याकार्यव्यवस्थित्यां शास्त्रमेव प्रमाणम्.
अस्तु
द्वे रूपाणि रूपौ.
सत्यं सत्यं महोदय सत्यं. करणीयं वा अथवा न करणीयं वा इति तस्य निर्णयः शास्त्रेण एव करणीयम् इति. किं कार्यं करणीयं, किं कार्यं न करणीयम् इति तद् कथं निर्णेतुं शक्नुमः? शास्त्रं दृष्ट्वा एव निर्णेतुं शक्नुमः. शास्त्रम् एव प्रमाणम् इति मन्ये. अस्तु भानु भगिनि अग्रे.
महोदय कथं जानीमः द्वे रूपे एकरूपं?
किमपि इकारान्त ह्रस्व इकारः मतिशब्दवत् अस्ति, स्त्रीलिङ्गपदम् अस्ति. किमपि रूपं वयं वक्तुं शक्नुमः भगिनि?
व्यवस्थितौ
अथवा व्यवस्थित्याम् अपि
अपि द्वे रूपे सः, परन्तु कथं जानीमः द्वे रूपे
अस्ति इति वा? सः तत्र कोष्टकमस्ति, मतिशब्दस्य कोष्टकमस्ति पेज् 198 मध्ये. खलु तत्र मतिशब्दस्य विभक्तिरूपं पश्यति चेत् किम् अस्ति, प्रथमाविभक्ति, द्वितीयाविभक्ति, तृतीयविभक्ति, तत्र विकल्पः नास्ति, चाय्स् इति नास्ति. किन्तु तदनन्तरं किं भवति, विकल्पः अस्ति, स्त्रीलिङ्ग एव अस्ति, स्त्रीलिङ्ग एव अस्ति. किन्तु मति इति इकारन्त शब्दः अस्ति इति कृत्वा एकं रूपं कविशब्दवत् अस्ति. किन्तु तत् स्त्रीलिङ्गपदम् इति कृत्वा अन्यत् रूपम् अस्ति, नदीशब्दवत्. किन्तु एकं चिन्तनम् अस्ति, अस्तु तत् स्त्रीलिङ्गपदम् इकारान्त ह्रस्व इकार इति तत्तु जानीमः, किन्तु तत् स्त्रीलिङ्गपदम् इति तत् मनसि स्थापयितुं वयं नदीशब्दरूपं स्वीकुर्मः इति तावदेव. नद्यां मत्याम् इति अस्ति चेत् अस्तु अस्तु एतत् स्त्रीलिङ्गपदम् इति सुलभं भवति अवगमनार्थम्. अतः स्थित्याम् इति अहं चिन्तयामि, स्थित्याम् इति समीचीनं भवति इति.
उकारान्त ह्रस्व उकारान्त समाने एव.
सत्यं सत्यं, सत्यं. तत्रापि पश्यतु, तत्र उकारान्तस्त्रीलिङ्गपदधेनु इति धेनवाम् अस्ति, धेनौ अपि अस्ति.
किन्तु पुंलिङ्ग नास्ति.
अतः अहं मम चिन्तनम् अस्ति धेनवाम् इति एव चिन्तयामः.
अस्तु अस्तु महोदय.
समीचीनं वा? अस्तु अस्तु, न न चिन्ता मास्तु. प्रश्नः समीचीनः एव. अस्तु अस्तु, भानु भगिनि.
आं महोदय. तव बुद्धिः समाधिः अचला तिष्ठति. तव बुद्धिः समाधौ अचला तिष्ठति.
समीचीनं. तत्र समाधिः इति पदस्य लिङ्गं कोऽपि जानाति वा?
पुल्लिङ्ग
अस्ति. अतः तत्र तदेव रूपम् अस्ति, अन्यत् रूपं नास्ति तत्र. अस्तु अस्तु, समीचीनं भगिनि. हरि महोदय अग्रे.
महोदय, अहं
पण्डितः,
पण्डितः ब्राह्मणः, श्वपाकः, गौः च समदर्शी भवति. पण्डितः ब्राह्मणे, श्वपाके, गौ किं महोदय, अहं न
जाने. तत् वयं न कृतवन्तः खलु, सत्यमेव. अस्तु महोदय. तत्र औकारान्तपदं वयं न कृतवन्तः. तत्र गौः इति कोष्टके अन्ते यत् कोष्टकमस्ति तत्रापि न दत्तम् इति मन्ये खलु. सरला भगिनि, सत्यं भगिनि. किन्तु अत्र किमपि रेफरेन्स् भवतु खलु, किमर्थम् एतद् अस्ति इति. अतः अहं चिन्तयामि तत्र अन्ते. तत्र महोदय, गौ, तत्र गौ, गौ इति शब्दः, तत्र गो इति शब्दः अस्ति, ओकारन्त पुल्लिङ्गशब्दः अस्ति गो इति. गौः, गौहः इति तत्र, तत्तु एकवचने अस्ति, गावौ, गावः इति प्रथमविभक्तिरूपम् अस्ति. तत्र सप्तमीविभक्तिरूपम् अस्ति गवी गवोः गोषु इति. हा इति सप्तमीविभक्तिरूपम् अस्ति. गौहः गावौ गावः घां घावौ गाहः घवा गोभ्यां गोभिः घवे गोभ्यां गोभ्यः गोः गोभ्यां गोभ्यः गोः गवोः गवां गवि गवोः गोषु इति. हा एतत् यदि शब्दमञ्जरी पश्यन्ति चेत् एतद् लभ्यते तत्र. हा किन्तु ओकारान्त पुल्लिङ्गगोशब्दः अस्ति एतत्. तत्र गौहः इति अथवा गौः इति तत्तु प्रथमविभक्ति एकवचनरूपम् अस्ति. तस्य सप्तमीविभक्ति एकवचनरूपं यथा सरला भगिनी उक्तवती गवि इति अस्ति.
त्वं कुत्र पश्यसि महोदय?
शब्दमञ्जरी इति पुस्तकमस्ति महोदय. तत्र सर्वाणि विभक्तिरूपाणि दत्तानि सन्ति. हा शब्दमञ्जरी अथवा रूपचन्द्रिका शब्दचन्द्रिका एतादृशानि पुस्तकानि लभ्यते इण्टर्नेट् इण्टर्नेट् मध्ये. हा किन्तु गीतासोपाने न दत्तमस्ति. हा अत्र न दत्तमस्ति. हा तत् अहं न जानामि भगिनि. बहूनि शब्दमञ्जरी इति बहूनि पुस्तकानि सन्ति. तत्र केवलम् एतत् पश्यतु पुल्लिङ्ग तत्र अकारान्तपुल्लिङ्ग ईकारान्तपुल्लिङ्ग ऋकारान्तपुल्लिङ्ग इति प्रायशः दत्तमस्ति. तदनन्तरम् आगच्छति ओकारान्तपुल्लिङ्गशब्दः.
किन्तु वाक्येन त्रयोविंशति गौहौ दत्तं गो दत्तं नास्ति.
अत्रापि गौहौ अस्ति गौहौ.
प्रथमविभक्ति एकवचनं दत्तम्. अस्तु महोदय.
अस्तु अस्तु. तत्र ओकारान्तशब्दः अस्ति गवि इति रूपम् अस्ति अत्र. इदानीं वाक्यं वदतु महोदय. हरि महोदय.
पण्डितः ब्राह्मणे स्वपाके गवि च समदर्शी भवति.
हा इति अस्ति. अस्तु इदानीं गीताञ्जलि भगिनी अग्रे.
ईश्वरः सर्वभूतानां हृद्देशे
तिष्ठति. समीचीनं भगिनि. हा अग्रे सरला भगिनि अग्रे.
आपतयः पुल्लिङ्ग इकारान्त बहुवचने अस्ति. आपतिषु वीरः धैर्यं न चाहति.
समीचीनं भगिनि.
एकवचनं भवति आपति
आपत्तिः 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 आपत्तौ इति भवति. अत्र आपत्तयः इति अस्ति. अतः रूपं किमस्ति?
आपत्तिषु
आपत्तिषु इति. कविषु मुनिषु इति आपत्तिषु इति. अस्तु समीचीनं भगिनि. नरेश महोदय अग्रे.
महोदय चमूः सप्तमी विभक्ति
चम्वां भयं नास्ति. समीचीनं महोदय. इदानीं भानुचित्री महोदय.
क्षितिः जलम् उद्भवति. महोदय इति पदं कः
लिङ्गस्त्रीलिङ्ग.
धन्यवादः महोदय.
श्रुति
पृथ्वी पृथ्वी इति अर्थः इति मन्ये खलु क्षितिः इत्युक्ते
आम् महोदय आम् महोदय जलम् उद्भवति
समीचीनं महोदय हा अस्तु भानुभगिनी अन्तिमं हा
अर्जुनः तेजो तेजोराशिः विश्वरूपं पश्यति अर्जुनः तेजोराशौ इकारान्त तेजोराशिः तेजोराशौ इकारान्त हरिशब्दौ
राशि इति पुल्लिङ्गपदम् अस्ति वा
हरिः तेजोराशौ विश्वरूपं पश्यति
अत्र एकं वदामि तत्र पश्यतु यदि स्त्रीलिङ्गपदम् इति जानीमः तत्र वयं यथा तत्र किं बुद्ध्याम् इति रूपं स्वीकुर्मः बुद्ध्याम् इति यदि पदस्य लिङ्गं न जानीमः तत्र किं कुर्मः ह्रस्वैकारपदमस्ति तस्य सप्तमीविभक्तिरूपम् आवश्यकम् अस्ति चेत् किं कुर्मः कविः शब्दः कवि पुल्लिङ्गपदमिति चिन्तयित्वा वदामश्चेत् साधु एव भवति खलु अस्तु अस्तु अग्रे गच्छामः इदानीं हा बहु सः समीचीनमस्ति
लिङ्गं वा लिङ्गः वा पुल्लिङ्गः वा नपुंसकलिङ्गं वा लिङ्ग लिङ्गशब्द
लिङ्गशब्दस्य लिङ्गं वा अहं चिन्तयामि लिङ्गम् इति नपुंसकलिङ्गपदम् अस्ति इति
पुल्लिङ्गः इति किमर्थं लिखति स्त्रीलिङ्ग पुल्लिङ्गः
लिङ्गः इति अहं चिन्तयामि लिङ्गम् एव अस्ति इति लिङ्ग लिङ्ग इति
लिङ्गाः
नपुंसकलिङ्गः एव अस्ति महोदय तत्र यथा सरलाभगिनी उक्तवती तत्र उपसर्गः अस्ति चेत् तत्र पुल्लिङ्गः इति भवति तत्र प्रायशः तत्र लिङ्गभेदः परिवर्तनं भवति किन्तु लिङ्गपद लिङ्गम् इति नपुंसकलिङ्गपदमेव अस्ति अस्तु किं भगिनि लिङ्गम् इति अहं मम चिन्तनमस्ति लिङ्गम् इति नपुंसकलिङ्गपदम् इति अस्तु हा किन्तु दृष्ट्वा वदन्तु अस्तु हा अग्रे गच्छामः तत्र हरि महोदय अग्रे पठति वा अग्रिमपुटे
महोदय प्रश्ने सर्वे स्त्रीलिङ्गः नपुंसकलिङ्गः इति दत्तमस्ति
कुत्र भगिनि
198 पेज् पश्यतु लिङ्गः लिङ्गः तत्र सर्वे पुल्लिङ्गः स्त्रीलिङ्गः
तत्र स्त्रीलिङ्गः इति अस्ति खलु भगिनि अस्तु नपुंसकलिङ्गज्ञानशब्दः तत्र मम चिन्तनमस्ति तत्र शब्दः इति अस्ति तस्य विशेषणमस्ति स्त्रीलिङ्गः स्त्रीलिङ्गः नपुंसकलिङ्गः शब्दः इति शब्दः इति पुल्लिङ्गे अस्ति अतः तत्र नपुंसकलिङ्गः मधुशब्दः इति तत्र विशेषणभावः इति अस्ति इति कृत्वा तत् पुल्लिङ्गे भवति इति मम चिन्तनं. हा, किन्तु लिङ्गम् इति एव अहं हा अहं सर्वदा तदेव दृष्टवान् इति मन्ये. हा, लिङ्ग नपुंसकलिङ्गपदं
लिङ्गम् इति प्रष्टव्यम् अतः
तत्र सत्यं महोदय. अस्तु, अस्तु, हरि महोदय, अग्रे अग्रिमपुटे तृतीय अभ्यासः.
कोष्टकसहाय्येन यथोदाहरणं वाक्यानि वदत.
एकवारम् उदाहरणं वदतु तत्र.
अश्रुः अश्रु नेत्रयोः अस्ति.
तत्र अश्रु नेत्रे इति दत्तम् अस्ति. वाक्यं भवति अश्रु नेत्रयोः अस्ति इति वाक्यं भवति. किमर्थं नेत्रयोः इति रूपम् अस्ति तत्र? नेत्रे इति नेत्रं, नेत्रे नेत्राणि इति अस्ति, द्विवचने अस्ति इति कृत्वा तत्र नेत्रयोः इति अस्ति. अस्तु, इदानीं हा तत्र अग्रिमं करोतु महोदय. हरि महोदय.
कन्दुकानि कन्दुकानि स्यूतौ स्यूतौ
स्यूतयोः राम रामौ
स्यूतयोः स्यूतयोः कन्दुकानि स्यूतयोः सन्ति.
सन्ति, हा, समीचीनं. कन्दुकानि इति बहुवचने अस्ति, अतः सन्ति इति. समीचीनम्. अस्तु, गीताञ्जलि भगिनी अग्रिमं.
कङ्कणानि हस्तौ कङ्कणानि हस्तयोः.
हा, वाक्यं
हस्तयोः स्तः.
न न, कङ्कणानि इति अस्ति.
कङ्कणानि हस्तयोः
इदानीं हस्तयोः त्यजतु भगिनि. कङ्कणानि किं भवति? कङ्कणानि अस्ति वा? कङ्कणानि पदस्य वचनं किम्?
बहुवचनं.
इदानीं कङ्कणानि
हस्तेषु.
न न, हस्तम् इति त्यजतु. कङ्कणानि अस्ति वा अथवा कङ्कणानि सन्ति वा, किं समीचीनं?
कङ्कणानि हस्तयोः सन्ति.
हा, इदानीं समीचीनं भगिनि. अस्तु अस्तु, कङ्कणानि हस्तयोः. हस्तम् इति द्विवचने अस्ति, हस्तौ इति, किन्तु कङ्कणानि केवलं कङ्कणद्वयम् इति नास्ति खलु, अनेकानि कङ्कणानि सन्ति, हस्तद्वये सन्ति इति कृत्वा कङ्कणानि हस्तयोः सन्ति इति. हा, अग्रे सरला भगिनि, अन्तिमम् एतत् कृत्वा भवती गच्छतु. हा,
शवः तृणीरे तृणीरम् इति भवति नपुंसकलिङ्गम् अकारान्तशब्द. शवः तृणीरयोः सन्ति. ऋषवः इषु इति कालान्तशब्द बहुवचनं.
हा, तत्र
गुरवः
भगिनि, तृणीरे इति दत्तम् अस्ति तत्र. अहमपि दृष्टवान् तृणीर्
प्रथमपि पृष्ठे अस्ति अस्ति बाणाः तृणीरे.
द्विवचने, हा, द्विवचने अस्ति खलु तत्र तृणीरे इति.
हा,
अस्तु अस्तु,
द्विवचने सप्तमी विभक्ति तृणीरयोः भवति.
हा, सत्यं. हा हा, सत्यं भगिनि. अस्तु, तृणीरयोः भवन्ति, सन्ति. समीचीनं भगिनि. अस्तु,
धन्यवादः.
अस्तु अस्तु भगिनि, नमस्कारः. हा, नमस्कारः भगिनि. अस्तु, नरेश महोदय अग्रे.
कथाः इतिहासौ कथाः इतिहासौ सन्ति.
इतिहासौ इति समीचीनं महोदय, अस्तु. हा अग्रे बाणचित्तिनि महोदय.
अश्वाः अयने, अश्वाः अयन् अयनेषु सन्ति.
न न न, अयने इति पदस्य वचनं किम्?
अयनम्
अयनम् एकवचने
महोदय.
द्वि अयने किम् अस्ति?
द्विवचनं महोदय.
हा अस्तु,
अयनयोः.
हा
अश्वाः अयनयोः स्तः.
न न
अश्वाः सन्ति.
इदानीं किमस्ति रूप वाक्यं वदतु महोदय.
अश्वाः अयनयोः सन्ति.
हा सन्ति एव अस्ति. हा सन्ति किमर्थम्? अश्वाः बहुवचने अस्ति खलु.
अश्वाः सन्ति.
हा अश्वाः कुत्र सन्ति? अयने, अयनयोः सन्ति. हा इति अस्तु. भानुभगिनी
अयनम् इत्युक्ते महोदय,
अयनं हा स्टेबल् इति वा किम् अस्ति अयनम्? कुत्रापि ट्रेक् किमपि भवति महोदय? हा रूट् अथवा रूट् अथवा आन् द रोड् अथवा किमपि तादृशः भवति इति मन्ये महोदय. अस्तु. हा भानुभगिनी अग्रे.
महोदय एक प्रश्न महोदय, ईशवः तूणीरयोः सन्ति इत्युक्ते?
ईशवः, ईशवः इत्युक्ते आरोस्. तत्र यत् क्विबर्, हा यत् पुटसङ्ख्या 63 मध्ये यत् चित्रमस्ति बाणाः तुणीरे सन्ति इति,
किमर्थं द्विवचनं तु?
हा तद् केवलम् अभ्यासार्थम्. हा अपि अपि वयं चिन्तयामः, अस्तु तुणीरे इति सप्तमविभक्तिपदमस्ति इति चिन्तयित्वा ईशवः तुणीरे सन्ति, तदपि साधु. तुणरि तुणीरयोः अपि साधु.
नेत्रयोः एव सर्वे.
हा किन्तु अश्रु नेत्रे अस्ति तदपि साधु खलु. हा तदपि भवति खलु, एकमेव नेत्रे अश्रु अस्ति इति तदपि भवति खलु. अश्रु टियर्स्, टियर्स्
नेत्रयोः
अस्ति. एतत् साधारण सन्दर्भः अस्ति. टियर्स् आर् यूजुलि इन् टु ऐस्, किन्तु टियर्स् कुड् आल्सो बि इन् वन् ऐ. अतः हा सत्यं सत्यं सत्यं. हा तत् केवलम् अभ्यासार्थं. हा अस्तु. हा भानुभगिनी अग्रे. हा
योद्धारः सेनयोः योद्धारः योद्धारौ योद्धा अस्ति.
योद्धारः, योद्धारः इति वचनं किं वचनं?
रामः, रामौ, रामः.
न न न, योद्धा इति कुत्र वयम् एतत् पदं दृष्टवन्तः? कोऽपि जानाति वा कुत्र अस्ति योद्धारः इति? बहुवचनपदम् अस्ति भगिनि एतत्.
पितरः,
पितरः, पितरौ,
पिता, पितरौ, पितरः इति तादृशपदमस्ति. कर्तारः इति
मातरः, योद्धारः. आम् महोदय, योद्धारः सेनयोः सन्ति.
हा अस्तु. हा तत्र पुटसङ्ख्या 65 मध्ये अस्ति खलु. हा अस्तु. हा इदानीं वा किमस्ति वाक्यं किमस्ति? योद्धारः
सेनयोः सन्ति.
हा इदानीं तत्र किमर्थं सेनयोः?
सेनयोः से
किमर्थं? सत्यं समीचीनम् अस्ति, किन्तु एकवारं वदतु. हा सेने इति पदम् अस्ति, सेने इति द्विवचने अस्ति.
द्विवचने अस्ति.
हा सत्यं. किन्तु लिङ्गं किम्?
सेना सेनौ सेनाः.
सेना सेना सत्यं, द्विवचने सेने.
आकारान्त स्त्रीलिङ्गशब्दं वा महोदय?
हा सत्यं भगिनि, सेना इति.
रमा रमे शब्दवत्
स सत्यं सत्यं. हा सत्यं. अतः स्त्रीलिङ्गपदम् अस्ति. भवती यद् उक्तवती तत् सत्यमेव, किन्तु स्त्रीलिङ्गपदम् इति ज्ञातव्यम् आसीत् तावदेव.
समीचीनं.
योद्धारः सेनयो
सन्ति
सन्ति. समीचीनं भगिनि. हा हरि महोदय.
औषधं कूप्यो. औषधं
कूप्योः
अस्ति. कूप्योः कूपी इति पदमस्ति वा महोदय?
औषधं कूप्योः.
किमर्थम्?
औषधं कूप्योः अस्ति.
अस्ति. हा किमर्थं कूप्योः?
कूप्योः द्विवचनं.
हा
द्विवचन प्रथमविभक्ति, एतत् सप्तमीविभक्ति कूप्योः द्विवचनं.
हा तत्र कूप्यौ इति कीदृशपदं लिङ्गं किम्?
ईकारान्त स्त्रीलिङ्ग
स्त्रीलिङ्गपदं कूपी नदी शब्दवत्. हा नदी नद्यौ नद्यः इति सत्य. समीचीनं महोदय. अस्तु अग्रे नरेश महोदय.
आं महोदय. नूपुरे पादौ पादौ द्विवचनं सप्तमी विभक्ति द्विवचनं पादयोः. नूपुरे पादयोः अस्ति.
सन्ति न न न सन्ति अपि साधु नास्ति, अस्ति अपि न साधु नास्ति. किमर्थं?
द्विवचने नूपुरे.
हा नूपुरे द्विवचने अस्ति. नूपुरे द्विवचने अस्ति. समीचीनं महोदय. नूपुरे पादयोः स्तः स्तः. समीचीनं महोदय. अस्तु हा अग्रे गीताञ्जलि भगिनी अग्रिमम् अभ्यासं तत् पठतु भगिनि.
यथोदाहरणं वाक्यानि रचयत. गिरयः सर्पः गिरिषु सञ्चरति.
तत्र किं कार्यं किम् अस्ति? यत् पदं दत्तमस्ति तस्य कीदृशरूपम् आवश्यकम्?
बहुवचन सप्त विभक्ति
न न किमपि पदम् अस्ति तस्य सप्तमविभक्तिरूपम् आवश्यकम् अस्ति. तत्र वचनं दृष्ट्वा तदपि द्रष्टव्यमस्ति, वचनमपि द्रष्टव्यमस्ति. तस्य पूर्वं सर्पः इति, सर्पः तत्र सञ्चरति. तत्र सर्पः कुत्र सञ्चरति? सर्पः गिरिषु सञ्चरति. अन्यत्र सञ्चरति वा सर्पः? आम् इति. अस्तु अग्रिमं करोतु भगिनि.
कन्दराः कन्दराः
तत्र पुल्लिङ्गपदम् अस्ति भगिनि.
नराः यथा यथा नराः.
हा
गिरिषु
न न न देवः देवः किं भवति? देवे देवयोः
देवेषु
हा
कन्दरेषु
सञ्चरति.
समीचीनम्. इदानीं वाक्यं
सञ्चरति.
हा, सर्पः कन्दरेषु सञ्चरति. केव् इति. हा, कन्दरः केव्.
कन्दरः इत्युक्ते
केव् केव्.
ओ केव्.
बालचेतनी महोदय अग्रिमम्.
गुल्माः सर्पः गुल्मेषु
सञ्चरति.
गुल्म गुल्म इत्युक्ते किं?
बुश् बुश् बुशस्.
पुंलिङ्गशब्द
गुल्मः इति पुल्लिङ्गशब्द इति मन्ये भगिनि. हम्
उच्चारण किं समीचीनं महोदय?
तत्र वेदः अस्ति भगिनि, पुल् पुल्लिङ्गः इति. दक्षिणभारते दक्षिणभारते उम् इति वदन्ति, किन्तु उत्तरभारते पुल्लिङ्गः इति उच्चारणं भवति. दक्षिणभारते तत्र किञ्चित् मकारस्य उच्चारणं भवति, तावदेव. पुल्लिङ्गः अथवा पुल्लिङ्गः इति. अस्तु, अग्रे भानु भगिनि.
गुहा गुहा आकारान्त स्त्रीलिङ्गशब्दः.
शब्दः.
सर्पः गुहासु सञ्चरति.
समीचीनं भगिनि. इदानीं हरि महोदय.
तारवः तारवः बहुवचनं. तरु तरु उकारान्त पुल्लिङ्गशब्दः. सर्पः तरुषु तरुषु सञ्चरति.
तरु इति इत्युक्ते वृक्षः इति.
वृक्षः.
अस्तु, अग्रे नरेश महोदय.
लताः स्त्रीलिङ्ग बहुवचनं, सप्तमी विभक्ति बहुवचनं लतासु. सर्पः लतासु सञ्चरति.
हा, समीचीनं महोदय. गीताञ्जलि भगिनी इदानीं.
बिलानि बिलानि नपुंसकलिङ्ग
पदं. सत्यं. वचनं
बहुवचनं.
बहुवचनं.
सर्पः बिलेषु सञ्चरति.
सञ्चरति. समीचीनं. सञ्चरति. समीचीनं. बालचेतनी महोदय अग्रिमम्.
वल्मीकानि सर्पः वल्मीकेषु सञ्चरति.
वल्मीकेषु सञ्चरति. समीचीनं. भानु भगिनी अग्रे.
शाखा आकारान्त स्त्रीलिङ्गशब्दः. सर्पः शाखासु सञ्चरति.
सञ्चरति. समीचीनं. अस्तु, इदानीं भानुचेतिनी महोदय अग्रिम अभ्यासः पठति वा
महोदय? सप्तमी विभक्तिः विशेषप्रयोगाः. यथोदाहरणं वाक्यानि वदत. मम गीतायाम् अभिरुचिः अस्ति. मम वा अस्माकं वा? अस्माकं तु बहुवचनरूपं.
तत्र तत्र अर्थः कः इत्युक्ते, ऐ एम् इण्ट्रेस्टेड् इन् भगवद्गीता और् मै इण्ट्रेस्ट् लैज़् इन् भगवद्गीता, तादृशरूपः वयं वदामः. अभिरुचिः भवतः अभिरुचिः कस्मिन् अस्ति, कस्मिन् विषये अस्ति इति प्रश्नः. तत्र उत्तरः भवति मम अभिरुचिः गीतायाम् अस्ति अथवा मम अभिरुचिः
अस्माकं गीतायाम् अभिरुचिः अस्ति
हा तदपि हा अस्माकम् अभिरुचिः अस्माकम् अभिरुचिः गीतायाम् अस्ति तदपि साधु एव अस्ति महोदय अत्र एतत् तत्र किं भवति अभिरुचिः इति यदा वक्तुम् इच्छामः कस्मिन् विषये इति प्रश्नः भवति अतः उत्तरं सप्तमीविभक्तौ भवति अतः अत्र गीतायाम् इति अस्ति तादृशः एव अभिरुचिः यथा अस्ति तादृशः एव मम मतिः अथवा मम विश्वासः अथवा मम अभिमानः अथवा मम रुचिः मम भक्तिः मम प्रीतिः मम अनासक्तिः कस्मिन् विषये अस्ति इति प्रश्नः भवति अत्र वयं किमपि वक्तुं शक्नुमः अस्तु अग्रे हा गीताञ्जलि भगिनी अग्रिमं भवान् हा भानुचित्रि महोदय क्षम्यतां भवानेव एकं करोतु तत्र हा
अस्माकं मत्यां स्वधर्मः
न न मतिः अभिरुचिः तस्य विभक्तिपरिवर्तनं न भवति केवलं गीता इति शब्दस्य सप्तविभक्ति हा मम अभिरुचिः प्रश्नः मम अभिरुचिः अथवा अभिरुचिः कस्मिन् विषये भवति अभिरुचिः गीतायां भवति इदानीं प्रश्नः किं
मम मतिः स्वधर्मे विषये अस्माकं मतिः स्वधर्मे
स्वधर्मे अस्ति स्वधर्मे अस्ति
अस्ति महोदय
हा अस्माकम् अस्ति अस्माकं मतिः अपि स्वधर्मे अस्ति किमर्थं चेत् मतिः इति एकवचने अस्ति अस्माकम् इति बहुवचने अस्ति किन्तु अस्माकं मतिः एकवचने अस्ति मतिः अस्ति अस्माकं मतिः अस्ति अस्माकं मतिः कस्मिन् विषये अस्ति अस्माकं मतिः स्वधर्मे अस्ति समीचीनं वा भवानुचेतन महोदय
अस्तु महोदय धन्यवादः
हा अस्तु गीताञ्जलि भगिनी अग्रिमं विश्वासः इति
मम विश्वासः कस्मिन् अस्ति मम विश्वासः गुरौ
हा समीचीनं भगिनि हा मम विश्वासः गुरौ अस्ति हा
विश्वासः कस्मिन्
अस्ति अस्ति अस्ति
एकवचनं अस्माकं विश्वासः कस्मिन् अस्ति अस्माकं विश्वासः गुरौ अस्ति
हा सत्यं समीचीनं भगिनि अस्तु इदानीं भानुचित्रि भानु भानु भगिनि
आं महोदय
अभिमानः इति
मम अभिमानः कस्मिन् अस्ति मम अभिमानः संस्कृतौ अस्ति
संस्कृतिः संस्कृतौ अस्ति समीचीनं हरि महोदय
मम रुचिः कस्मिन् अस्ति मम रुचिः कार्ये अस्ति
हा मम रुचिः कार्ये अस्ति समीचीनं नरेश महोदय अग्रे
मम भक्तिः तस्मिन् अस्ति मम भक्तिः मातरी अस्ति
हा मम भक्तिः मातरी अस्ति समीचीनं बालचतनी महोदय अग्रे
मम प्रीतिः कस्मिन् अस्ति
मम प्रीतिः संस्कृते
अस्ति समीचीनम् अस्तु गीताञ्जलि भगिनी अग्रे
मम अनासक्तिः कस्मिन् अस्ति मम अनासक्तिः परधर्मे अस्ति
हा मम अनासक्तिः परधर्मे अस्ति इति भवति हा अस्तु किं किं भगिनि
अनासक्ति इत्युक्ते अर्थम्
आसक्तिः इत्युक्ते एन्तूसियासम् अथवा इण्ट्रेस्ट् अनासक्तिः डिस् इण्ट्रेस्ट् स्वधर्मे मतिः स्वधर्मे अस्ति, अनासक्तिः परधर्मे अस्ति इति. अस्तु नरेश महोदय अग्रिमं.
महोदय
आसक्तिः 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 न आसक्तिः.
आसक्तिः समानार्थं
किं किम्?
अनासक्तिः आसक्तिः.
तत्र विरुद्धार्थकपदमस्ति. आसक्तिः इति इण्ट्रेस्ट्, अनासक्तिः डिस् इण्ट्रेस्ट्. शक्तिः न आसक्तिः. आसक्तिः शक्तिः इति पदं नास्ति. शक्तिः आसक्तिः सकारः सकारः अस्ति. आसक्तिः आशक्तिः इति न आसक्तिः. अनासक्तिः इति. नरेश महोदय अग्रे.
स्वस्य वर्धनाय कुत्र कुत्र आसक्तिः भवतु, कुत्र कुत्र मास्तु इति निर्णयत. धर्मे आसक्तिः भवतु, धर्मे आसक्तिः भवतु.
अग्रे महोदय.
लोभे लोभे आसक्तिः मास्तु.
हा लोभे आसक्तिः मास्तु. समीचीनं महोदय. हा अग्रे बाणचितनी महोदय.
लोभे आसक्तिः मास्तु.
यद् यद् करणीयं तद् वदतु महोदय.
त्यागे आसक्तिः भवतु.
हा त्यागे आसक्तिः भवतु. अस्तु गीताञ्जलि भगिनी.
कीर्तिः कीर्त्यौ
हरौ कीर्तौ
कीर्तौ हा सोरि कीर्तौ आसक्तिः भवतु.
कीर्तौ आसक्तिः भवतु. अस्तु हा अग्रे भानु भगिनी.
साधना आकारान्त पुल्लिङ्गशब्दः
साधना स्त्रीलिङ्ग
स्त्रीलिङ्गशब्दः साधनायां साधनायाम् आसक्ति भवतु.
हा आसक्तिः भवतु. समीचीनं. हरि महोदय.
पठने आसक्तिः भवतु.
भवतु. अस्तु हा अग्रे नरेश महोदय.
मोहः मोहः सप्तमी विभक्ति मोहे मोहे आसक्तिः मास्तु.
मोहे आसक्तिः मास्तु. अस्तु अग्रे बाणचेतनि महोदय. धृतिः
सत्सङ्गे
धृतिः वा सत्सङ्गः महोदय.
धृतिः धृतिः महोदय.
धृतिः धृतौ आसक्तिः भवतु.
हा धृतिः इत्युक्ते सत्यं. समीचीनं महोदय. अस्तु तत्र आसक्तिः भवतु एव. किं भगिनि?
कुत्र दत्तं पदं?
धृतिः इति वा?
धृतिः पदम् अहं न पश्यामि.
मोहः अस्ति तस्य अधोभागे धृतिः नास्ति वा? नास्ति वा? अस्तु अस्तु मम पुस्तके अस्ति, किन्तु प्राशे एतत् पुरातन एडिशन् इति मन्ये. हा नूतन एडिशन् मध्ये नास्ति वा इदानीं धृतिः इति? अस्तु 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 अस्तु, गीताञ्जलि भगिनी भवती एव करोतु सत्सङ्गः, भवती कृतवती वा न? हा सत्सङ्गः इति करोतु भगिनी. हा
सत्सङ्गे आसक्तिः भवतु.
भवतु, अस्तु. हा इदानीं भानु भगिनी.
पुण्यं पुण्ये आसक्ति भवतु.
भवतु, अस्तु.
भवतु.
हा हरि महोदय अग्रे.
पापं पापे आसक्तिः मास्तु.
हा समीचीनं. हा अग्रे नरेश महोदय.
भोगः भोगे आसक्तिः मास्तु.
हा अस्तु. इदानीं भानुचेतनी महोदय.
शान्तिः शान्तौ आसक्तिः भवतु.
आसक्तिः भवतु, समीचीनम्. अस्तु, हा इदानीं वयम् एकं प्रयोगं दृष्टवन्तः सप्तमीविभक्तिरूपस्य. तत्र आसक्तिः वा अभिरुचिः वा मतिः वा विश्वासः एतत् यदा वक्तुम् इच्छामः तदा सप्तमीविभक्तिरूपस्य आवश्यकता भवति. मम विश्वासः रमेशे अस्ति, अथवा तत् तं बालकं पश्यतु, मम विश्वासः तस्मिन् बालके अस्ति इति. ऐ हाव् कान्फिडेन्स् इन् दट् चैल्ड् इति तादृशरूपः भवति. मम विश्वासः, मम भक्तिः देवे अस्ति इति तादृशरूपः भवति. तत्र सप्तमीभक्तिरूपस्य आवश्यकता अस्ति. तत् तद् बहु उपयोगकरम् अस्ति सप्तमीविभक्तिरूपम्. अस्तु, किञ्चित् एव समयः अस्ति इति कृत्वा प्रश्नः अस्ति चेत् पृच्छतु. अस्ति वा सप्तमीविभक्तिरूपस्य? अग्रे वयं किं कुर्मः, अग्रिमवर्गे अन्यानि प्रयोगानि, अन्याः प्रयोगाः ये सन्ति तद् तान् पश्यामः. अपि तद् एतत् किं भवत् तत् तस्य अपि सप्तमीविभक्तिरूपं पश्यामः. अस्तु, अग्रिमवर्गे किं कुर्मः गृहपाठरूपेण, किं कुर्मः, ग्रहणं ताडनं? हा प्रायशः एतद् हा अस्तु, अहं चिन्तयित्वा वदामि. अस्तु, अहं प्रेषयामि. अस्तु, समयः जातः. अग्रिमवर्गे मिलामः. सर्वेभ्यो नमस्कारः.
नमस्कारः.
नमस्कारः. नमस्कारः. नमस्कारः.
शुभरात्रिः महोदय. धन्यवादः.
नमस्कारः महोदय. नमस्कारः महोदय.